पुरोश्वस्पै पुरोरथमिन्द्राजशोषमर्चत अभीके चिदलोककृत्सङ्गे समत्स्ववृत्रः अस्माकम् बोधिचोदितानभन्दामञ्जकेशाञ्जाका अधिधन्वसो त्वम् सिन्धोऽङ्ग्रवा सृजोधरा चो अहन्महिम् अशत्रुरिन्द्रजज्ञशे विश्वम् पश्यसि पार्यन्तम् त्वा परिष्वजामहेन भन्दामञ्जकेशाञ्जाका अधिधन्वसो विषविश्वा अरातजोर्यो न शन्दनोधिजाः अस्तासि शत्रवे पथञ्जो न इन्द्रजिघांसधिजाते रातिर्दतिर्वसु न भन्दामञ्जकेशाञ्जाका अधिधन्वसो यो न इन्द्राभितो जनो वृकाजुरादिदेशते अधस्पदन्तमेऽङ्ग्रदिविबाधो असि सा सहिर्नभन्दामञ्जकेशाञ्जाका अधिधन्वसो यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्याः अपतस्य बलम् तिरमहेपत्यौरधत्मना नभन्दामञ्जकेशाञ्जाका अधिधन्वसो वयमिन्द्रत्वाजपः सखित्वमारभामहे रथस्य नः पथा न जाति विश्वानि दुरिता न भन्दामञ्जकेशाञ्जाका अधिधन्वसो अस्मभ्यम् सत्त्वमिन्द्रताम् शिक्षजादोहते प्रतिवरञ्जरित्रे अच्छिद्राग्ने पेपयद्यथा नः सहस्रधारापयसा महे गौः